नमस्सर्वेभ्यः अद्य प्रौढमनोरमायाः संज्ञाप्रकरणे सप्तमः पाठः अक्टोबर् मासस्य षड्विंशः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ध्यायं ध्यायं परं ब्रह्मस्मारं स्मारं गुरोर्गिरः सिद्धान्तकौमुदी व्याख्यां कुर्मः प्रौढमनोरमाम् सो वी विल स्टार्ट विल डू अ क्विक रीकैप ऑफ व्हाट वी हैव बीन डूइंग इन द प्रौढमनोरमा स्टडीइंग द मूला ओके विल रीड द मूला पार्ट ऑफ ईच ऑफ इट जस्ट सी इफ यू कैन रिमेंबर व्हाट वी डिड इट्स वेरी इंपॉर्टेंट टू बी एबल टू understand the Moola. Moolasya avagamanam bahu mukhyam. Punah punah pathamashchet. Moolam api avagamyate smarane api tishthati. Adau Hayavarat iti sutra vicharaha asit. Hayavarat iti sutra hakaropadeshasya kim prayojanam iti samaha bhagaha. Hayavarat hakaropadeshaha at ash hash in grahaneshu hakara grahanarthaha. अर्हेण अड्व्यवायेऽपि इति नत्वं देवाः सन्ति भो भगो इति रोर्यत्वं देवो हसति हसि च इति उत्त्वं लिलिहिद्धे विभाषेतः इति वा ढः चतुर्षु प्रत्याहारेषु हकारस्य ग्रहणम् अपेक्ष्यते इत्युक्त्वा तत्र प्रयोजनान्यपि प्रदर्श्यन्ते अग्रिमः विषयः हल् इति माहेश्वरसूत्रे किमर्थम् हकारोपदेशः हकारोपदेशस्य किं प्रयोजनम् हल् इदं सूत्रं वल् रल् झल् शल्षु हकारग्रहणार्थं रुदिः स्वपिः रुदादिभ्यः सार्वधातुके इति वलादिलक्षणः इत् स्निहित्वा स्नेहित्वा रलोऽप्युपधाद् इति वा कित्वम् अदाग्धां झलो झलि इति सकारलोपः अलिख्यत् छल इगुपधात् इति सः अनन्तरं हलन्त्यम् इति सूत्रे अंशद्वयं दर्शितं दीक्षितैः आवृत्तसूत्रे हलन्त्यं सूत्रावृत्तिः इति दीक्षितानां सिद्धान्तः सिद्धान्तस्थापनम् एकः भागः सूत्रावृत्तिः एव क्रियते न तु एकदेशावृत्तिः इति परन्तु आवृत्तसूत्रे कीदृशः विग्रहः विग्रहविषये आदौ उच्यते अनन्तरं सिद्धान्तविषये हलन्त्यं सूत्रे अन्त्यमिति हलि अन्त्यम् इति विग्रहे सप्तमीति योगविभागात् सुप्सुपा इति वा समासः इति भावः यद्वा षष्ठी तत्पुरुषोऽयं स्यादेतत् हलिति एकदेशस्यैव तन्त्रावृत्त्येकशेषान्यतममस्तु हस्य लु इति च व्याख्यास्यते सामीप्यं षष्ठ्यर्थः यद्वा मास्तुतन्त्रादि अस्तु समाहारद्वन्द्वो हल् च लु च इति लकारस्य संयोगान्तलोपः इति चेत् मैवम् आद्ये समासस्य क्लिष्टत्वात् न हि ब्राह्मणकम्बलः इत्यादौ ब्राह्मणसमीपवर्ति अन्यदीयः कम्बलः प्रतीयते न वा चित्रकुशब्दात् चित्रकवीणां समीपवर्ती वृक्षादिः प्रतीयते अत एव अनन्तरादिषु न समासो अनभिधानात् इति स्पष्टमाकरे किं बहुना ब्राह्मणस्य कम्बलः चित्रागावोऽस्य इति व्यस्तप्रयोगोऽपि तत्र अनिष्टः द्वितीयेऽपि संयोगान्तलोपो दुर्लभः यणः प्रतिषेधारम्भात् तत्प्रत्याख्यानपक्षेऽपि झलो झलि इत्यतः झल् ग्रहणमपकृष्य संयोगान्तस्य झलो लोपविधानाच्च किञ्च पदार्थबोधं विना वाक्यार्थबोध असम्भवेन हल् प्रत्याहारसिद्धेः प्राक् एतत् सूत्रार्थ अबोधे प्रसक्ते तदुद्धारार्थोऽयं यत्नः अस्याञ्चावस्थायां हल् शब्दार्थप्रसिद्धौ द्वन्द्व एव दुर्लभः सः विवक्षाया असम्भवात् तस्मात् यथोक्तमेव न्याय्यम् यथोक्तं नाम हलन्त्यम् इति सूत्रं सम्पूर्णतः अवर्तते न तु एकदेशावृत्तिः इति दीक्षितानां सिद्धान्तः स एव न्याय्यः इति सिद्धान्तं स्थापयति ततः आदिवन्तेन सहेता इति सिद्धान्तकौमुद्यां द्वितीयं सूत्रं. तत्र सूत्रार्थः कः, कथं सूत्रार्थः लिखितैः कौमुद्यां लिखितः, अन्त्येन इतासहितः आदिः, मध्यगानां स्वस्य च संज्ञा स्यात्, तादृशः सूत्रार्थः कथं लभ्यते इति दर्शयति. मध्यगानामिति आद्यन्ताभ्याम् अवयवाभ्याम् अवयवीसमुदायः आक्षिप्यते, तस्य च युगपत् लक्ष्ये प्रयोगाभावात् तदवयवेषु अवतरन्ती संज्ञा मध्यगेषु विश्राम्यते, न तु आद्यन्तयोः संज्ञास्वरूपान्तर्भावेण तयोः पालार्थ्यनिर्णयाद् इति भावः. अच् इति यदि प्रत्याहारः क्रियते तर्हि तत्र समुदायः सम्ञि, यस्य समुदायस्य अकारः आदिः चकारः अन्तः तादृशः समुदायः, कयून् ऋलक् एवम् अयौच् इति समुदायः सम्ञि. तत्र मध्यगानां ग्रहणं भवति, यतोहि सर्वेषां युगपत् प्रयोगः न दृश्यते, एकैकस्यापि अच् इति संज्ञा भवति, तच्च मध्यगानामेव भवति, यतोहि संज्ञा परार्था, वृद्धिः इत्युक्ते आ ऐ औ, न तु वृद्धिशब्दः स्वयं. तथैव अच् इत्युक्ते मध्ये ये सन्ति तेषामेव संज्ञा भवति, न तु अकारचकारयोः इति प्रथमः अंशः. तर्हि आदेः ग्रहणं कथम् इति चेत्, स्वस्य च इति स्वं रूपम् इत्यनुवृत्तेः स्वं रूपं च आदेरेव दृश्यते, न अन्त्यस्य. अन्त्येन इति अप्रधानतृतीया निर्देशात् सर्वनाम्नाम् उत्सर्गतः प्रधानपरामर्शित्वात्, स्वस्य इत्युक्ते आदेः इत्येव भवति, यतोहि आदिः प्रधानम्, इता इति अप्रधानतृतीया, इत् अप्रधानम्, आदिः प्रधानम्, अतः स्वस्य च इत्यनेन आदेरपि ग्रहणम्. अत एव मध्यगानां स्वस्य च नाम आदेश्च संज्ञा भवति. उपदेशः नाम कः, हलन्त्यम् इति द्वितीयवारं यदा उच्यते तदा उपदेशः अद्योच्चारणम्, उपदेशे अन्त्यं हलित् स्यात्, उपदेशः अद्योच्चारणम्. तत्र उपदेशशब्दस्य व्युत्पत्तिविचारः, भावघयन्तो वा कर्णघयन्तो वा इति प्रश्नः. काशिकादिषु कर्णघयन्तः इति उक्तं, दीक्षितास्तु भावघयन्तः इति प्रतिपादयन्ति. आद्योच्चारणमिति यद्यपि उपदिश्यते अनेन इति करणव्युत्पत्त्या शास्त्रम् उपदेशः इति भाष्यवृत्त्यादिषु व्याख्यातम्, तथापि तत् प्रौढिवादमात्रम्. करणे घयो दुर्लभत्वात्, ल्युटापाधात्, न च घः असंज्ञात्वात्, प्रायेण संज्ञायाम् इति व्याख्यानस्य क्लिष्टत्वात्, न ह्युपाधेरुपाधिर्भवति इत्यादिना भाष्यकृता अवहेलनाच्च, अत एव घापवादो हलच्च इति घञपि इह न इह न, बाहुलकन्तु अगतिकगतिः, अत एव प्रक्रियन्ते शब्दाः याभिः इति करणव्युत्पत्तिरपि परास्ता. तथा च वार्तिकम् अजभ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेन इति, अतः भावे एव प्रत्ययोन्याय्य इति भावः. भावघयन्तः एव न तु कर्णघयन्तः, यतोहि विधायकं सूत्रं नास्ति, करणे घयः विधानं नास्ति. ल्युट् प्रत्ययः करणे घयं बाधते इति दीक्षितानां प्रतिपादनं. करणे ल्युट् भवति न तु घञ्, ल्युटः अपवादत्वेन घ तथा पुनः घञ् प्रत्ययः अस्ति, किन्तु ता उभावपि संज्ञायामेव भवतः, अतः असंज्ञायाम् उपदेशः इति न संज्ञा, तत्र करणे ल्युट् एव भवितुमर्हति न तु घञ्, अतः अत्र भावघयन्तः एव स्वीकरणीयः इति दीक्षितानां सिद्धान्तः. ततः धातुसूत्रगणोणादि इति कारिकायाः निराकरणम् अस्ति, अस्माभिः अनन्तरं कदाचित् पठिष्यते. ततः उपदेशे अजनुनासिक इत्, उपदेशे अनुनासिकः च इत्सम्यः स्यात्, हलन्त्यम् इत्यनेन हलः इत्सम्य, उपदेशे अजनुनासिक इत् इत्यनेन अचः इत्सम्य विधीयते अनुनासिकस्य अचः. तत्र अनुनासिकसंज्ञा ज्ञातव्या. कौमुद्यां सूत्रक्रमः आदौ उपदेशे अजनुनासिक इत्यस्ति, ततः मुखनासिकावचनोनुनासिकः इति अनन्तरं पठ्यते. अनुनासिकशब्दः पूर्वमेव अनुनासिकसंज्ञा पूर्वमेव वक्तव्या इति चेत् न वक्तव्या इति दीक्षितानां मतम्. यतोहि अनुनासिकसंज्ञा यौगिकी, इट् इस् अ डिरैव्ड् टर्म्, जस्ट् बै द डिरैवेशन् यु केन् नो द मीनिङ्ग्, देर् इस् नो नीड् टु डिफैन् अन् अनुनासिकसंज्ञा सेपरेट्लि. अनुनासिकसंज्ञासूत्रं मन्दप्रयोजनम् इति दीक्षिताः तदेव वदन्ति. उपदेशे अजनुनासिक इत्, यद्यपि अत्र उपजीव्यत्वात् अनुनासिकसंज्ञा प्रथमं वक्तुमुचिता,
तथापि नासिकाम् अनुगतः इति योगाश्रयणेनैव गतार्थत्वात् अनुनासिकसंज्ञासूत्रम् मन्दप्रयोजनम् इति ध्वनयितुम् नेह उपन्यस्तम्. सो हि इण्डिकेट्स् दट् सट्लि saying that nasikam anugataha, that which follows the nasika, along with the mouth part, it requires the nasika. Iti yogashrayaneva gatarthatvat. So we can easily understand what is anunasika just by looking at the derivation, the etymology, and we do not require a separate sutra. Iti dhanaitam neha upanyastam. Iti prathamaha vicharaha. ततः उपदेशग्रहण प्रयोजनम्. उपदेशे अजननासिक इत्यस्ति. उपदेशग्रहणस्य किं प्रयोजनम्? उपदेशे किम् अभ्र आ अपः यद्यपि इह उञः ऊ इत्यत्र इव विधानसामर्थ्यान् न इत्वम् इति सुवचम्, तथापि उत्तरार्थम् अवश्यं कर्तव्यम् उपदेशग्रहणम् स्पष्टप्रतिपत्तये इहैव कृतम्. अभ्र आ अपः आ इत्यस्ति आङ्गोनुनासिकश्छन्दसि इत्यनेन आकारस्य, आदौ केवलः निरनुनासिकः आकारः आङ् इति निपातः अस्ति, ततः आङ्गोनुनासिकश्छन्दसि इत्यनेन आनुनासिक्यं विधीयते. इदानीम् उपदेशे अजनुनासिक इत्यनेन इत्संज्ञा न भवेत्. इत्संज्ञा भवति चेत् ततः लोपोऽपि भवति. तदर्थम् उपदेशग्रहणम्, अयं न उपदेशः. आद्योच्चारणे आनुनासिक्यं नास्ति, ततः परमेव अनुनासिकः विधीयते. अतः उपदेशपदग्रहणे सति अभ्र आ अपः इत्यत्र आकारस्य इत्संज्ञा निवारयितुं शक्या. अतः अत्र उपदेशग्रहणम् इति पूर्वपक्षः. तथापि यद्यपि ह उञः ऊ इत्यत्रैव विधानसामर्थ्यात् न इत्वम्, आनुनासिक्यं विधीयते. विधीयते इत्युक्ते श्रूयते इत्यपि अर्थः. नो चेत् पाणिनिः साक्षात् लोपं विधीयेत. यु हेव् डैरेक्ट्लि टोल्ड् अ लोप इफ् यु वाण्टेड् टु बि डिलीटेड्. वै क्रियेट् अन् इत्संज्ञा अण्ड् डिलीटेड्? वै क्रियेट् अन् अनुनासिका अण्ड् देन् डिलीटेड्? So because he has expressly told that there is an anunasika, it means the anunasika will be heard. Vidhana samarthyat na itvam. So it is possible to offer such an explanation, yet uttarartham avashyam kartavyam upadesha grahanam spashta pratipattaye ihaiva krutam. Uttarartham arthat halantyam ityatra avashyam apekshyate upadesha grahanam, ataha spashta pratipattyartham atra api kriyate. So from the beginning itself he says upadeshe, itsamya always applies right at the upadesha. अज् ग्रहण प्रयोजनं किम्? उपदेशे अज् अनुनासिकः इत् इति उच्यते. तत्र अज् ग्रहणस्य किं प्रयोजनम् इति. अच् किं? मनिनो मकारस्य मा भूत्. मनिन् इति प्रत्ययः अस्ति, तत्र मकारः अनुनासिकः, उपदेशे एव अनुनासिकः, तथापि तस्य इत्संज्ञा नेष्यते. तदर्थम् उपदेशे अनुनासिकः अच् इत्संज्ञः भवति इत्युच्यते. This is where we stopped. Tataha pratijñānunāsikyah pāṇiniyāḥ iti asti. Anunāsikyam katham nyāyate? Anunāsikaha achi vichyate. Kintu anunāsikyam katham nyāyate iti prashnaha. Itohi idānīm prayoge anunāsikasya śravaṇam nāsti. So in prayoga we do not hear. If he says su, su aujas, so we do not know if it is an anunasika or a niranunasika. So how do we know? Say pratijñānunāsikyāḥ pāṇiniyāḥ. So pāṇiniyāḥ nāma pāṇiniyāḥ varṇāḥ. So in the letters of Pāṇini, anunasikyam, the property of anunasika, of being nasalized, pratijñā should be known by pratijñā. Pratijñā is where there is an effort to make known, where somebody tells. Pratijānāti iti bodhayati. पाणिनीयाः इत्यत्र पाणिनिशिष्याः इति एकः एकं व्याख्यानमस्ति, किन्तु तत् निराक्रियते. अत्र एव शब्दरत्नेपि निराक्रियते. सो अकार्डिङ्ग् टु वाट् लिखितर् मीन्स् इट् मीन्स् प्रतिज्ञानुनासिक्याः पाणिनीयाः वर्णाः इत्येव. आगच्छामि, इतोपि उच्यते, तद्विषये एव उच्यमानमस्ति. सो अनुनासिक्यं प्रतिज्ञया ज्ञातव्यं. प्रतिज्ञा नाम बोधनम्. So when somebody tells, महाभाष्यकारः वदति अत्र अनुनासिक्यम् अस्ति, इत्संज्ञा भवति, अथवा इत्संज्ञया कार्यं क्रियते. सो यूसिङ्ग् दट् इत्संज्ञा वि डू सम् कार्य. सो वि नो वि गो बै बेक्वर्ड् रीजनिङ्ग्. पाणिनि डस् हि सेज् इट्स् एन् अनुनासिका, इट् बिकम्स् इत् अण्ड् देन् वि डू सम् कार्य बेस्ड् आन् दट् इत्संज्ञा. बट् वाट् वि डू टुडे, बिकास् द अनुनासिक्या इस् लास्ट्, यस् वि लुक् एट् सम् कार्य, वि इन्फर् दट् इट् हेस् हेपन्ड् बिकास् इट् इस् एन् इत्संज्ञा. And we infer that the itsamya is because it is an anunasika. For example, there is su. सु औजस् रामा सु इत्यस्ति तत्र उकारः नास्ति उकारस्य लोपः दृश्यते सु सकारः पदान्ते अस्ति अतः ससजुषोरुः इति रूपं विसर्गश्च क्रियते सो नौ वि नो दट् देर् इस् नो उकार इस् नाट् बीङ्ग् हर्ड् देर् सकार वि ट्रीट् इट् एस् पदान्त अण्ड् वि डु इट् दट् इस् वाट् वि सी फ्रम् आल् वृत्ति विच् मीन्स् द उकार इस् नाट् देर् सो वेर् डिड् इट् गो इट् मस्ट् हव् बीन् डिलीटेड् हौ इस् इट् डिलीटेड् इट् शुड् हव् बीन् डिलीटेड् बै इत्संज्ञा So how does it have an itsamya? Because it was an anunasika. So it is a backward reasoning but which we use now. So pratijnya anunasikyaha paniniyaha. Pratijnyayate iti pratijnya. Prodhamanoramayaha mule asti. Atashyopasarge iti karmani anga. So pratijnya shabdasya nishpatim darshayati. Pratijnyayate asau iti pratijnya. That which is thought. प्रतिज्ञायते सो विशेषेण बोध्यते इत्यर्थः यः विशेषेण बोध्यते स एव प्रतिज्ञाशब्देन उच्यते कथं निष्पत्तिः आतश्चोपसर्गे इति कर्मणि अङ् कर्मार्थे कर्म इस् दट् दट् आब्जेक्ट् विच् इस् बीङ्ग् टाट् इत्यर्थे आतश्चोपसर्गे इति सूत्रेण अङ् प्रत्ययः अत्र अस्ति प्रतिज्ञा आनुनासिक्यं येषाम् इति विग्रहः प्रतिज्ञानुनासिक्याः इत्यत्र येषाम् आनुनासिक्यं प्रतिज्ञा येषां वर्णानाम् आनुनासिक्यम् अनुनासिकत्वं प्रतिज्ञा अर्थात् बोध्यविषयः सो आनुनासिक्य इस् बीङ्ग् टाट् स्पेशलि बीङ्ग् टोल्ड् स्पेशलि बै कामेण्टरि वृत्तिकारादिषु इत्यर्थः अत्र कः प्रश्नः अङ् इति प्रत्ययः अस्ति सो वि सा सिमिलर् डिबेट् फार् उपदेश वेर् There was a debate between Bhave Ghai and Karane Ghai. Similarly, we have here Triyam Kting iti Adhikare. Kridanta Pratyayanam Kajana Avalihi Purva Api Drishta. Triyam Kting iti Adhikare Hasti. Tatra Kechana Pratyayaha Santi. Ayam Ang Pratyayaha Api Tasmin Adhikare Vasti. Tatra Kasmin Arthe Pratyayaha Vidhiyate Bhave Akartarica Karake. So, the pratyaya can either be in bhava. Bhava means kriya. It can just mean action. Or akartari karake. Kartribhinne karake. It can also indicate some karaka other than kartri. Ata eva karmani ang. Iti uchyate. So, atra prashnaha bhave pratyahava karmani pratyayova. Iti prashnaha. So, on that will depend the meaning of the word. Okay. So, if it is bhave. Next, please. Karmani yadi pratyaya. If we say it is a pratyaya in karma, then the word pratigya will mean the object which is being taught, which is the anunasikya. Yadi bhave pratyaya, tarhi bodhana kriya ityartha bhavati. Bhavaha nama kriya. Bhava indicates action, whereas karma indicates the object of that action. Right? So if we say this is bhave pratigya, iti yadi bhave pratyaya, tarhi bodhana kriya. Udaharanartham pratigyam karoti ityasti. There is a popular usage, which means he takes an oath or he makes something known specially. Tada bhave pratyaha. It means the action of making somebody know. Atra, yadi karmani pratyaha, tarhi pratigyaya yaha bodhyate. The object which is being taught or made known is indicated by pratigya. So, which of these should we take? Karmani pratigya, karmani pratyaya samanadhikaranam siddhyati. So, there is an error in the color. So, this is black. That is, this is not in the mula. Okay, I'll change the color in the notes. Our general convention is that whatever is read in the mula. But these two, the last two lines in this slide, by mistake I made it red, it should be black. It is not the mula pankti. Karmani pratyaya samanadhikaranyam siddhyati. If we say that it is karmani pratyaya, pratigya anunasikyam. Pratigya namakaha arthaha bodhyaha vishayaha. The object which is being taught. And what is that? Anunasikyam. Samanadhikaranya. I hope you all know what is Samanadhikaranya. When two things indicate the same. For example, Neelam Kamalam. Ityasti. So there, the word Neelam indicates an object which is black or blue. And Kamalam is the lotus, the object. So Neelam ityanenapi Kamalam eva uchyate. Kamalam ityanenapi Saneva Padartha Uchyate. Both of them refer to the same thing. Okay. So that is Samana Adhikaranya. Ubhayohu Samanam Adhikaranam. So when there are two words, when both of them indicate the same thing, we call it as samanadhikaranya. Okay. So idani pratijna ityukte bodhyaha vishayaha ityasti. So sayeva kim bodhyate, bodhyaha vishayaha kaha anunasikyam. Anunasikatvam, the property of anunasika is the one which is being taught. Therefore, there is samanadhikaranya. Pratijna and anunasikyam mean the same. Because of that, we have the samasa. He shows the samasa as bahuvrihi. Bahuvrihi samasaha prayena sarvatra samanadhikaranaha. Okay, bahuvrihi samasa is mostly, there are cases of vyadhikarana bahuvrihi, but mostly it is a samanadhikarana. Pitam ambaram yasya saha. Pitam ambaram iti samanadhikaranyam. Right? Praptaha anandaha yam saha. Praptanandaha. Praptaha anandaha samanadhikaranyam asti. Pitam kshiram yaya sa. Pita kshira bala. So, pitam kshiram samanadhikaranyam. Everywhere, bahuvrihi samasa is a samanadhikarana samasa. So now, since there is samanadhikaranya, yadi karmani pratyaha iti angi kriyate, tarhi samanadhikaranyam siddhyati. Pratijna nama bodhyaha vishayaha sayeva anunasikyam. Ataha samanadhikaranyam asti, pratijna anunasikyam yesham iti vigrahaha siddhyati. If we treat it as a bhava pratyaya, what is the problem? Bhave pratyayetu, please go back the previous slide. Bhavartha pratyayetu pratijna namaka bodhana kriya. Right? Pratijna refers to action. Anunasikyam is the property. It is not an action. So between the action and the property, we do not have a samanadhikaranya. Bhave pratyaha ityukte samanadhikaranyam na siddhyati. Pratijna nama bodhana kriya ityartha bhavati. Anunasikyam nama anunasikasya bhavaha. Tattu varnasya gunaha. So kriya gunayoha samanadhikaranyam na bhavati. Ataha samasaha ashrayitum na shakyate. So, the problem, if we treat it as a bhavartha pratyaya, will be, we cannot do this samasa, because there is no samanadhikaranya. Ataha karmani eva pratyaya bhavet, iti dikshitanam matam. So, pratijnayate iti pratijna, atashchopasarge iti karmani ang, pratijna anunasikyam yesham iti vigrahaha. Next. So, tatra kim kriyate kaishchit, some people argue that it should be a bhavartha pratyaya. Pratijna ityatra bhavarthakah eva pratyaha iti vadanti. Tarhi katham pratijna ityakte pratijnana kriyayaha anunasikyasya cha samanadhikaranyam nasti ityakte lakshana ashriyate. So there is a concept called lakshana. Okay? The shakti, lakshana and vyanjana are three words to be known. If you have read a bit of tarka, you will all be familiar with the words. The question is, I mean, this is a very important question which has been raised in and debated in all shastras. Vyakarana shastra api prameya granthesu asti. Padena kim abhidhiyate? What is that which is conveyed by a word? Okay. So if you say balaha, it conveys a boy. Okay. So there is a pradhana artha. Each word will have a particular meaning. Okay. That is what we call as a shakya artha, that which the pada directly indicates. We have balaha, it means a boy. So there is simhaha, it means a lion. Okay, we know what is a boy, we know what is a simha. Okay, so there is a lakshyartha. If we say saha balaha simhaha, what do we understand? Do we mean to say that that boy has, say, he has a face like a simha, lion, or he has the mane and say a tail and four legs? We do not mean that. Everybody will understand when we say balaha simhaha. Simha sadrishaha, he resembles a simha. In what? In his valor, probably parakrama. That is what we usually take simha as well. So when we say that balaha simhaha, simhaha ityatra shakyartha na grihyate, right? We do not take the shakyartha, the main meaning of simha. We take something more. Okay, so that something more is given by two other senses which we call as lakshana and vyanjana. Okay. So lakshana is that. Mukhyartha anupapannatve sati. When the main meaning, when the shakyartha does not fit, there is an anupapatti. Say for example, you are saying balaha simhaha. So it does not make any sense because a boy is a boy and he is not a lion. Right. So shakyartha na upapadyate tada lakshana ashriyate. We take a lakshana to take something related to it. Okay, we take something related to the simha, which is parakrama. So we say he is parakramashali. A famous example they give is Gangayam Ghoshaha. Ghoshaha Nama Abhirapalli, a cowherd village, is in the Ganga. Gangayam Ghoshaha. Ganga Parasya Kaha Arthaha, Ganga Pravahaha, the river Ganga. So, a village is in the river Ganga. Is it possible? I mean, the village cannot be located within the waters of the Ganga. So, what do we say? Ganga Tire Ittarthaha. We take Lakshana. Lakshana means that which is associated. So, the associated with the Ganga is the Ganga Tira. We say Ganga Tire Saha Ghoshaha. Gramaha Asti. So, Kimartham Gangayam Iti Prayogaha. So, it indicates that the Tira is as pure, as sacred as the Ganga. Pavanatta Shetyadi Gunaha Tatra Aropyante. Tadartham Gangayam Ghoshaha Iti Prayogaha. So, the usage is Gangayam Ghoshaha, but we understand it to mean that it is a village not inside the river Ganga, but on the banks of the Ganga. So, that is what we call Lakshana. Lakshana is where we take a related meaning and not the just the direct meaning. Okay. So, we use Lakshana in many cases. So, they say that we use Lakshana here. Pratijna nama bodhana kriya iti shakya asaha. Kintu taya kriyaya yad adhigamyate tat atra grahyate. So, here it does not directly mean action. It means that which is thought by the action. Iti lakshyarthaha. So, in both cases, the understanding is the same. Please understand that whether we take it as a bhavartha pratyaya, lakshana, iti yadi svikriyate, sakshat shakyasaha, karmani pratyaha, iti svikriyate, ubhayatrapi bodhaha samanaha. We understand it the same way. But what is the process of understanding is what they are trying to analyze. That is what Vyakarana does. Okay. So, in both ways, I mean, how we understand it is the same. But what is the process behind it is the question. So, yadi bhavarthe pratyaha tarhi lakshana ashriyate tatrapi kriyaya yad bodhyate iti avagantum lakshana. So, yadi pratijna shabdaha bhavarthe angantaha iti ashriyate tada pratijnaya jnatam anunasikyam. So, pratijna anunasikyam na pratijnaya jnatam anunasikyam. So, by that kriya of making known, by the kriya of pratijna, we know what where is the anunasikya. Iti artham sampadayitum lakshana ashrayaniya bhavati. Okay. So, karmani pratyayaha ityukte sakshat sahartha siddhyati. Right? Directly we get the meaning. Pratijna nama pratijnayate asau. Yaha pratibodhyaha vishayaha ityartha sakshat siddhyati. Yadi bhavarthe pratyayaha iti angrikriyate tarhi lakshana ashrayaniya bhavati. So, in these two, which is easier? Where is laghava? So, wherever there are two options, we always look for Gaurava and Laghava, where there is a greater effort or more effort and where there is lesser effort. Right? So, to say that it is Bhavartha Pratyaya and then treat it as Lakshana requires more effort. Well, directly if we take it as Karmani Pratyaya, it requires a lesser effort and lesser sutras. So, Laghavam Karmani Pratyaya Eva. Ata eva dikshite yochite. Evam cha pratijna samadhigamye pratijna shabdasya lakshana iti klishtam vyakhyanam na ashrayaniyam. We do not need to resort to such a complicated vyakhyana saying it is abhavartha pratyaya and then lakshana. Pratijna samadhigamye pratijna shabdasya lakshana iti klishtam vyakhyanam na ashrayaniyam. So directly by karmani pratyaya we get the desired meaning. Okay. So, pratijna anunasikya paniniya. So, he gives a drishtanta, anim udaharanam api rishyati. Paninyupagyam vyakaranam iti prayoga hasti. Okay. Paninyupagyam vyakaranam. Upagyam. So, next, please. Upagya is again a pada very similar to pratijna. Okay. Upa ja jnadhatu. Atra prati upasarga purvakaha jnadhatu. Tatra upa iti upasarga purvakaha jnadhatu. Upa iti adhyarthakatve. The first. So upagya ityatrapi evameva. Vividha arthadvaye pratyaha sambhavati. Yadi bhavathe pratyaha adhyabodhana kriya. The act of teaching something for the first time is called upagya. Karmarthe yadi pratyaha adya bodhana vishayaha. So that which is taught the first time is called upagya. Okay? So there is a prayoga, panini upagyam vyakaranam. Vyakarana is the upagya of panini. So vyakarana is the kriya of panini or the thing which was taught by panini. So vyakaranam iti, it is not the act of panini. It is that which panini taught first time. right? So Vyakarana Rashtadhyayi is that which Panini thought for the first thing. So Bodhya Vishayaha, Bodhanasya Vishayaha Vyakaranam, right? Panineha Bodhana Kriya Na Apitu Bodhana Vishayaha. Ataha Tatra Karmani Pratyaha Sarvaihi Angi Kriyate. So the example he gives is where there is no debate. Paninipadyam Vyakaranam Ityatra Sarvepi Angi Kurvanti Karmartheva Pratyaha. Pratyapaninipadyam Vyakaranam Ityadishu Iva Lakshana Vinaiva Nirvaha Tatra Lakshana Nashriyate Sakshat Karmartheva Pratyaha Iti Sarvaihi Angi Kriyate. Evameva Atrapi Pratigya Ityatrapi Karmartheva Pratyaha. Evameva Pratigya Shabdepi Karmarthakaeva Pratyaha Iti Dikshitanam Siddhantaha. Right. So I'll read these two lines again, just see if you have understood. Pratignayate iti pratigna, atashchopasarge iti karmani ang. Pratigna anunasikyam yesham iti vigraha. Evancha, pratigna samadhigamye, pratigna shabdasya lakshana iti krishtam vyakhyanam nashreniyam. Paninipagyam vyakaranam ityadishu iva. Lakshanam vinaiva nirvahat. Okay. So, yadyapi sutrakara krutaha anunasikah paathaha idaniim paribhrashtaha. So, kaha arthaha pratigya anunasikyah vaniniyaha ityatra. Yadyapi sutrakara krutaha anunasikah paathaha idaniim paribhrashtaha. Tathapi vrittikaradi vyavahara banena yathakaryam prakstitaha iti anuniyate iti bhavaha. So Panini sutrakara krutaha anunasika pathaha idanim paribhrashtaha. So the sutrakara Panini might have created all his with the anunasika. That is uccharadeva anunasikyam syan kintu idanim na labhyate paribhrashtaha. Tathapi vrittikaradi vyavahara banena. So, on the strength of how the Vrittikaras, the different Vrittikaras have interpreted Panini, starting from Katyayana and then Vashyakara and the other Vrittikaras, depending on how they treat the different cases, I mean, cases where they treat it as Anunasika or not. Yatha Karyam, so depending on the Karya, Yathamaya Uktam, Yatra Su Ityatra, Ukarasya Lopaha Drishyate, Ityadikam, Tatha Yatha Karyam, Karyam Atikramya. So only where there is a karya, we cannot say arbitrarily assign upadesha samya thinking that an anunasika is there. Okay? Yatha karyam, karyam anatikramya yatha karyam. So depending on the karya, prakshitaha iti anumiyate iti bhavaha. So we anumiyate, we infer that it was there, that it was earlier anunasika. So there is no way to directly know it. Based on the commentaries, we decide where there is anunasika and where there is not. Okay. So there is, as you said, there is an alternative vyakhyana. Pratijnananasikyaha paniniyaha ityatra panini shishyaha iti kintu tadeva. Yatha dikshitaihi vigraha drishyate. Pratijna anunasikyam yesha. So anunasikya is not a property of the shishyas. It is a property of the varanas. Okay, just a minute. There is a vyakhyana which makes it clear. I will just get it soon. Okay, so I'll read from another vyakhyana, which about this pratigya. Pratigya nama pratigyana vishayaha anunasikyam yesham te pratigyana nasikyaha. Pratigya chatra idam evam iti bodhana rupa. So what is pratigya? Idam evam. So that which tells this is like this. Bodhananca kvachit ayamananasikaha iti bhashyakaradinam sakshat kathanena pratyaha ityadi nirdeshadi rupa vyavaharena cha iti bodhyam. So how do they indicate? They either directly say that it is an ananasika or they do some karya depending on it from which we know that it is an ananasika. Paninehe ime varanaha iti paninehe ime iti paniniyaha varanaha ityarthaha. Pratijnana vishayaha anunasikyam yesham ityatra nishthatvam shashtyartha. Yesham ityate yannishtham anunasikyam pratigya. Pratigya bodha vishayaha. So that anunasikya in which, in those which is indicated by pratigya. Pratigyana vishayaha anunasikyam yesham atra nishthatvam shashtyartha. Evancha Yat swara varna nishtham, yat swara varna nishtham anunasikyam pratigya vishayaha te varanaha ityarthaha. Yattu paniniyaha shishyaha iti ahuhu tan na. Anunasikyasya shishya nishthatva asambhavat. So the anunasikya is not in the shishyas, it is in the varna. So according to this which is given by Vichidariya, pratigya anunasikyam yesham ityukte. Esham varnanam ityevartha natu esham shishyanam. Because the nishthatva is not in the shishyas. Anunasikyasya shishya nishthatva asambhavat. Jnana vishayatvena shishya nishthatva upapadanasya klishtatva atse iti bodhyam. You can say that jnana, the anunasikya jnanam shishya nishtham natu sakshyan anunasikyam. Ataha tadvyakhyanam sambhavati. It is possible to derive such a meaning, but it requires, it is gaurava. Okay, just like we saw now. Lakshanaya tadapi ashraya. So just like using something like lakshana, we can derive the meaning saying the panini shishyas, paniniyaha itinena, paninehene, panini shishyaha, tatra katham anvayaha bhavati, anunasikyasya jnanam pratigya, pratigya bodha vishayaha, anunasikyasya jnanam iti arthaha karaniyaha. The knowledge of anunasikya is by pratigya. Sambhavati kintu klishtatvat. Jnana vishayatvena shishya nishthatva upapadanasya klishtatvat. Ataha paniniyaha varanaha iti laghamam. So it is a better interpretation than paniniyaha panini shishyaha. Clear? Any questions? Anyesham, kepi prashnaha santiva? So pratigyana nasikya paniniya ha. Lan sutrastha varanaya saha uchadyamanaha rethaha ralayo samya. It is because of this point that the ananasika pataha paribhrashtaha atayeva ayam charcha vishayaha. There is a big debate in vyakarana about the rapratyahara. Rapratyahara ha dikshitaihi uchyate. Rapratyahara khandanam iti. Itteva grantha asti. Nagesha does not accept the rapratyahara. So there is a rapratyahara khandana. And then there is something called rapratyahara khandana mandana, etc. So there is a huge series of debates between the followers of Dikshita and the followers of Nagesha whether rapratyahara should be accepted or not. Okay, it does not end with Dikshita or Nagesha. Even their students have gone on to debate whether it is right or wrong. Okay, some five or six different things are there. So but इदानीं दीक्षितानां मतमितो हि दीक्षितानां ग्रन्थः अधीयते तन्मतानुसारेण र इति प्रत्याहारः अस्ति लन् सूत्रस्थ अवर्णेन सह उच्चार्यमाणः रेफः रलयो सम्या हयवरट् लण् लण् इत्यत्र हाकारः सः अनुनासिकः सो अनुनासिकत्वात् अनुनासिकत्वात् इत्सम्या भवति अ इति भवति अ सो तेन अकारेण सह प्रत्याहारः क्रियते आदिरन्त्येन सहेत अन्त्येन इता नाम अकारेण सहितः आदिः अत्र रेफः गृह्यते हयवर इत्यतः रेफः सो रेफस्य अकारस्य च प्रत्याहारे र इत्येव भवति पररूपं भवति र इत्येव प्रत्याहारः तेन प्रत्याहारेण किं गृह्यते मध्यगानां स्वस्य च र हयवरट् लण् र ल रेफलकारयोः र प्रत्याहारः इति दीक्षितानां सिद्धान्तः So there is a pratyahara called ra, which is created by combining this akara of lan with repa. So to combine this, a has to be it. So if it is it, it has to be anunasika. Anunasike satyeva itsamya sambhavati ityataha. Anunasikaha ataha itsamya tena saha pratyaharaha. Kim prayojanam asya pratyaharasya? Uran raparaha ityasti sutram in guna. When we do guna, say ad guna, it is the Rama, Ishaha, Rameshaha, Ganga, Okaha, Ganga, Okaha, Krishna, Ruddhi, it is the Akarat, Rukare, Pare, Purva, Parayoho, Ekaha, Gunaha, Ekadeshaha, Syam. Iti, Uran, Raparaha, Rukarasya, Sthane, Uhu, Nama, Rukarasya, Pitru, it is the Tapituhu, Tatha, Ru, it is the Uhu. ऋकारस्य स्थाने यदा अन् वर्णः आदेशः भवति तदा रेफसहित र परः रेफ परः भवति अत एव अर् इति आदेशः क्रियते If you all studied this in the Siddhanta Kaumudi, the Sandhi Prakarana. Ar iti adeshah kriyate. Tatra uran raparaha. So, uhu nama lakarasya sthane yat uka shamatam. Rakarasya sthane yatra an adeshah vidhiyate. Tatra raparaha bhavati. Ataha krishnardhihi iti siddhyate. Ganim prashnaha tava lakaraha ityasti. Atrapi gunaha pravartate. Atavahi lakaraha. Uran ityasti. Lakaraha api lakarena dushyate. Uhu nama lakarasya sthane ityapi arthaha siddhyati. Katham ruduvarnayoho savarnyam vachyam. Rukara lakarayoho savarnyam asti. Ataha rukarasya sthane an yatha raparaha. Tatha lakarasya sthane an api raparaha eva bhavet. So, if rapara bhaira we take only refa, then tava lukaraha ityate api ar ityeva adeshaha syat. Ishyate al ity adeshaha. Right? We require tava lukaraha to be taval lukaraha. The lakara should be the adesha. If we take the ra there only as a refa, then here also we should have only ar as the adesha. Al iti na labhyate. Ataha likhitehe chate refaha ralayoh samya. Tata ra iti pratyaharaha. Pratyaharena refaha lakarasya grihyate. Sthana samyat rikarasya sthane yada adeshaha tada ar iti bhavati. Lukarasya sthane yada adeshaha tada al iti bhavati. Iti dikshitana matam. Okay, so that is how he explains. And he uses the ra pratyahara in uran raparaha. Lan sutrastha varnaya saha uchcharyamanaha refaha ralayo samya. So that is his Siddhanta. So that is fine. I mean, he does not debate that point here at all. He takes it for granted that ra is a pratyahara. He does not justify or do that. Now, anantaram kim asti pratyahareshu itam. Nanu ralayohu iti nyunam. How do you say that it is only ralayohu samya? Hayavarat lan ityasti. Antena ita sahitaha adihi madhyaganam swasyacha. Madhya ke santi hayavarat. To l. So, takaraha pistikila. Takarasya kimartham grahanam nasti. Iti prashnaha. Nanu ralayoho iti nyunam. Takarasya api madhyagatatvat. So, even t is present. This happens even in achya. Unna. Nakarasya astvena grahanam astiva. Iti ches nasti. So, nanu ralayoho iti nyunam. Takarasya api madhyagatatvat. Ityataha pratyahareshu iti. So, pratyahareshu iti mule uchyate. Kimuchyate, pratyahareshu itam na grahanam anunasikaha ityadi nirdeshat. Nahi atra kakare pare achkaryam drishyate. Can somebody explain this pankti from the Siddhanta Kaumudi? What does he mean? What does Dikshita mean by this? Pratyahareshu itam na grahanam anunasika ityadi nirdeshat. Nahi atra kakare pare achkaryam drishyate. Can somebody explain this? Okay, so, yes, that is what it is meant, but why, what is the justification he gives? Why? He says, anunasikaha ityadi nirdeshat, nahi atra kakare pare achkaryam drishyate. Kaha artha hanayo panktyo. Chetam. Mm.
Satya. उत्तमं बहु सम्यक् प्रतिपादितं अनुनासिकः मुखनासिका वचनोऽनुनासिकः अनुनासिका इस् अ टर्म् विच् इस् यूस्ड् बै पाणिनि पाणिनि उपयुङ्क्ते अनुनासिक इति पदं तत्र इकारः अस्ति सो द वर्ड् इस् अबौट् द वर्ड् अनुनासिका इट्सेल्फ् अनुनासिक इकारः अस्ति सकारोत्तरः इकारः ततः ककारः अस्ति नौ अच् इति प्रत्याहारे जस्ट् अस्यूम् दट् वी आल्सो टेक् द इत् संज्ञा लेटर्स् इन् द प्रत्याहारः अच् इति प्रत्याहारः अ इ उ न ऋ ल क ए ओ ङ ऐ औ इति सर्वेषां ग्रहणम् इति चिन्तयामः तदा किं भवति ऋ ल क ककारः अस्ति ककारः अपि अच् इति सिद्ध्यति रैट् इफ् वि अस्यूम् दट् वि आल्सो टेक् इत् संज्ञा लेटर्स् इन् द प्रत्याहार ककार इस् आल्सो ट्रीटेड् एस् अच् नौ इफ् ककार इस् अच् अनुनासि इति इकारः अस्ति अग्रे ककारः अच् अस्ति सो इको यणचि अचि परे इकः यण् स्यात् जस्ट् लैक् इति अपि इति स्थिते इत्यपि इति क्रियते यणादेशः तथा अत्रापि ककारः यदि अच् तर्हि अत्रापि इकारस्य स्थाने यकारः भवेत् अनुनास् य क इति भवेत् तस्य यकारस्य अग्रे लोपोपि भवति अनुनास्क इति रूपं स्यात् सो द रूप शुड् हाव् बीन् अनुनास्क अण्ड् नाट् अनुनासिक सो पाणिनि यूसेस् दट् अनुनास् इ क He does not do yanadesha when followed by kakara, which means kakara is not it. Right? Sorry, kakara is not ach. So, tena jnayate pratyahareshu itam nagrahanam. Right? Pratyahareshu itam nagrahanam anunasika ityadi nirdesha. Nahi atra kakare pare, anunasika kakare pare achkaryam nama yanadesha na drishyate. Ataha kakaraha na ach. अच् इत्यादिषु प्रत्याहारेषु इत्संज्ञकानां ग्रहणं नास्ति अत एव र प्रत्याहारे रेफः रलयोत्संज्ञां सो ननु रलयोरिति न्यूनम् इति न तकारस्यापि मध्यगतत्वादित्युक्ते प्रत्याहारेषु इतां न ग्रहणं सो वि डु नाट् टेक् द इत्संज्ञक लेटर्स् इन् अ प्रत्याहार देर्फोर् र मीन्स् ओन्ली रेफ एण्ड् लकार क्लियर् इदानीं प्रत्याहारः इति पदमस्ति प्रत्याहारपदस्य कः अर्थः इति अग्रे उच्यते सो वि विल् ऐ थिंक वि केन् सी दिस् रैट् नौ सत्यं यदि सत्यम् अत एव तस्य तदे सा एव सङ्गतिः अत्र प्रदर्श्यते किमर्थं प्रत्याहारेषु एतां न ग्रहणम् इति कः सम्बन्धः कौमुद्यां रलयोत्सम्या प्रत्याहारेषु एतां न ग्रहणम् इति कः सम्बन्धः इन् द कौमुदी वि सी इट् एस् एन् इण्डिपेण्डेन्सि अण्डर्स्टाण्ड् इट् इण्डिपेण्डेन्सि सङ्गतिः अत्र प्रदर्श्यते अग्रे नेक्स्ट् प्लीस् फिनिश् द थिङ्ग् अबौट् प्रत्याहार भानुप्रकाश् जी नेक्स्ट् हा आदिरन्तेन इत्येतत् सूत्रेण कृताः संज्ञाः प्रत्याहारशब्देन व्यवह्रियन्ते तदपि कौमुद्यमेव उक्तं प्रत्याहारः इति प्रयुक्तं पाणिनिना कुत्रापि प्रत्याहारः इति व्यवहारः न कृतः पाणिनिप्रयुक्तः शब्दः न किन्तु आदिरन्तेन इत्येतत् सूत्रेण कृताः संज्ञाः प्रत्याहारशब्देन व्यवह्रियन्ते व्यवहारः दृश्यते कथम् इति चेत् यौगिकः अर्थः वि टेक् द एटिमोलाजिकल् मीनिङ्ग् व्यवह्रियन्ते इति प्रत्याह्रियन्ते नाम संक्षिप्यन्ते वर्णाः यत्र इति बाहुलकात् अधिकरणे घञ् यत्र यस्मिन् वर्णाः संक्षिप्यन्ते सो दट् इन् विच् द वर्ड्स् आर् लेटर्स् आर् अब्रिवियेटेड् अच् इत्युक्ते सर्वे स्वराः तत्र प्रत्याह्रियन्ते नाम संक्षिप्यन्ते इति प्रत्याहारशब्दः प्रत्याहार इत्यस्ति घञ् प्रत्ययान्तः हृ धातुः प्रति आ इत्युपसर्गपूर्वकस्य हृ धातोः घञ् प्रत्ययः घञ् कृते हृ इति स्थिते वृद्धिः भवति ईत्वात् अचोणिति इत्यनेन वृद्धिः हा इति भवति उरण्ड्रपरः इत्यनेन परत्वे हार इति भवति कथं घञ् अधिकरणे घञ् यत्र वर्णाः प्रत्याह्रियन्ते दट् इन् विच् द लेटर्स् आर्
abbreviated. So, yatra iti adhikarane ghani pratyaha mahulakat krityalito. So, again here there will be the same problem. Just like he argued for upadesha, karane ghani na bhavati lyuta badhat, adhikarane api ghani na bhavati. Karana adhikarane yos chaitine na karane adhikarane cha lyut bhavati. Ghayam badhitva lyut bhavati. Krityalyuto bahulam iti bahulagrahanam asti. Kwachit pravrittihi, kwachit apravrittihi. Shishta prayogaha asti ityataha. Atra adhikarane ghani angi kriyate bahulakat. Yadrapi yadyapi yoga matram akaradi samyasu atitrasaktam tathapi yoga rudhihi iti bhavaha. Now, if we just take the vyutpati, pratyahariyante varanaha yatra iti yadi svikriyate, then hi kim bhavati akaradishu api atitrasaktam. If we just say a ityanena kim drishyate ashtadasha akaraha drishyante. Right? Even the word just letter a, it is in effect, an abbreviation for the 18 akaras, right? A ityukte ashtadasha akaraha. Iti vashyavaha taha. Yoga matram. Nama pratyahriyante varanaha yatra. Iti yoga matram. Yoga is the derivation. So, just that. Akaradi samnyasu ati prasattam. A is also a samnya. A iti ashtadasha nam samnya ityeva uchyate dikshite. Right? Anujit savarnasya chapratyaha ityena. Akarena sarvepi savarnaha drishyante. Ataha a iti ashtadashanam samnya. Tarhi a ityapi pratyaharaha bhavet. Tenapi varnaha sankshipyante. So can just a be called a pratyahara? Yadyapi yogamatram akaradi samnyasu ati prasaktam. Tathapi yoga rudhihi iti bhavaha. Okay? So words are of three kinds. We say yoga, rudhi and yoga rudhi. Yoga is where we take purely the derived meaning. Yaha arthaha shabda vyutpatya nyayate, sayava arthaha yatra padasya bhavati, saha yogaha iti uchyate. Drishtam, anugataha nasikam, anunasikaha. Right? So that is a yoga. We just take the derived meaning. Rudhi is where the derived meaning will not hold or is not present. So we just take rudhi is that which is taken by convention. We just mean it. It just means that. We don't know why. As in, an example is rudhi. So all samya shabdas, anywhere where you name something is called rudhi. Say for example, you take Rama. Somebody is named Rama. It is not because Ramante Yoginaha Smin. It is not that in him. It is that Rama, the Vyutpati, applies only to Sri Rama, right? The Paramatman. But for if somebody is named Rama, we call it Rudhi. Rudhya Nama Uchyate. It is just convention that we decide to call him that. Okay? It does not mean that. So that is Rudhi. Now there are some where we take Yoga Rudhi, both Yoga and Rudhi. For example, Pankajam. It is the Pankajam, Panke Jayate, that which is born in Panka. Panka is the mud, the what you call the slush where you have mud and water together, that is Panka. Okay, Pankajam nama Kamalam. Kamalam Panke Jayate. It is true that the lotus is born in Panka. But there are also many other things, like many insects. Kita adikam api panke jayante. Kintu, tatra kamalasya eva pankaja padena vyavaharaha. Pankaja refers only to kamala. Because yoga and rudhi, it is the derived meaning also with convention. So, panke jayate iti satyam. Kintu pankaja padena kamalasya eva grahanam iti rudhi. So, it is both yoga and rudhi. Similarly, pratyaharaha. Pratyaharena varanaha sankshipyante pratyahareshu iti satyam. Okay. So, but not anything that abbreviates letters is a pratyahara. For example, akara is not a pratyahara. The pratyahara refers only to those which we create. Adirantena saheta ityanena ekriyante. Atayeva uchyate adirantena ityeta sutrena krutaha samyaha pratyahara shabdena vyavahriyante. So, yoga rudhihi, it is both the yogika artha plus rudhi that only those which we create using this sutra, adirantena saheta, we treat it as pratyaharas. Yadyapi yoga matram akaradi samnyasu atiprasaktam, tathapi yoga rudhihi iti bhavaha. Yatra iti samnyayam, isyam samnyayam. A ityanenapi. So even though akara is an abbreviation for 18 akaras, pratyaharatvena vyavaharah nasti. Right? So that is it. So next. Pratyaharasya ekasattvarimshaditi prantaha. Ita arabhya agrima kakshayam pashyamaha. So from here we'll see in the next class. Okay. Any questions?
Chetam. Ha. Hmm. Ha. Satyam. Satyam. So, yatra tayva adhikaranatvam tatra pradarshitam. Karanatvam na. Ah. तदेव उच्यमानमस्ति किमर्थं केवलं यदि यौगिकः अर्थः स्वीक्रियते प्रत्याहयन्ते वर्णाः यत्र अ इत्यत्रापि अष्टादशवर्णाः प्रत्याहर्यन्ते अतः अकारोऽपि प्रत्याहारः स्यात् इति शङ्का अतः योगरूढिः न केवलं यौगिकत्वं किन्तु रूढिः यत्र आदिरन्तेन इत्यनेन क्रियते स एव प्रत्याहारः न तु अकारः सकारत्वं नाम कः प्रकारः अ इति संज्ञा अ इति अष्टादशानां संज्ञा इत्येव व्यवह्रियते प्रत्याहार इति विशिष्टा संज्ञा नास्ति ध्यायं ध्यायं परं ब्रह्मस्मारं स्मारं गुरोर्गिरः सिद्धान्तकौमुदी व्याख्यां कुर्मः प्रौढमनोरमाम्।